शक्त्यायुक्तो यदि भवति शक्त प्रभवितुम् न चेदेवम् देवो न खलु कुशलस्पन्दितुमपि अत स्वा आराध्या हरिहरविरिञ्चादिभिरपि प्रणन्तुम् स्तोतुम् वा कथमकृतपुण्यप्रभवति सनीयाम् सम्वांसुम् तव चरणपङ्केरुगभवम् विरिञ्जित्सञ्जिन्वन् विरचयति लोकानवितलम् वहत्येनम् शौरिः कथमपि सहस्रेण शिरसा हरत्सम् शुद्ध्यैनम् भजति भसितो धूलनविधिम् अविद्यानाम् अन्तस्तिमिरमिहिरद्वीपनगरी जडानाम् चैतन्यत्वपदमकरन्दसृदिध्यरी दरिद्राणाम् चिन्तामणिगुणनिका जन्मजलधौ निमग्नानाम् दंष्ट्रा मुररिपुवरागस्य भवति वदन्यः पाणिभ्याम् अभयवरदो दैवतगणः त्वमेकानैवादि प्रकटितवराभीत्यभिनय भयात्रातुम् दातुम् फलमपि च वाञ्छामधिकम् शरण्ये लोकानाम् तव हि चरणावेव निपुणौ हरित्वामाराध्य प्रणतजनसौभाग्यजननी पुरा नारी भूत्वा पुररिपुमविक्षोभमनयत् मरोऽपि त्वाम् नत्वा रतिनयनलेख्येन वपुषा मुनीनामप्यन्तःप्रभवतिः मोगाय महता धनुपौष्पम् मौर्वी मधुकरमयी पञ्चविशिखाः वसन्तस्तामन्तो मलयमरुदायोधनरथः तथापेकः सर्वम् हिमगिरिसुते कामपि कृपा अपाङ्गात्ते लब्ध्वा जगदिदमनङ्गो विजयते क्वणस्काञ्चीदा करिकलभकुम्भस्तरलता परिक्षीणा मध्ये परिणतशरच्चन्द्रवदना धनुबाणान् पाशम् శ్రీనిమపి దధానాత్ కరతలైః పురస్తాదాస్తాన్నః పురమతితుః ఆహో పురుషికా. సుధాసింధోర్మధ్యే సురవిటపి వాటీ పరివృతే మణిద్వీపే నీపోప వనపతి చింతామణిగృహే శివాకారే మంచే పరమశివ పర్యంగ నిలయా భజంతి త్వాం ధన్యాః కతిచన చిదానందలహరీ. మహిం మూలాధారే కమపి మణిపూరే భూతవహం పితం స్వాధిష్టానే కృతి మరుతమాకాశముపరి మనోపి భ్రూమధ్యే సకలమపి భిత్వా కులపథం సహస్రారే పద్మే సకదసి పత్యా విరదసే. సుధాధారాచారై శరణయుగణాం సద్విగణితై ప్రపంచం సింధ్యంతి పునరపి రసాం నాయమఘసః అవాప్య త్వాం భూమిం భుజగనిభం అభ్యుష్టవలయం. స్వమాపానం కృత్వా స్వపిషి కులకుండే కుహరిణి. చతుర్భిశ్రీకంఠైః శివయువదిభిః పంచభిరపి ప్రభిన్నాభిః శంభోః నవభిరవిమూలప్రకృతిభిః చతుశ్చత్వారింశత్ వసుదలకలాశ్రత్రివలయత్రిరేకాభిః సార్ధం తవ చరణకోణాః పరిణతాః. త్వదీయం సౌందర్యం తుషిదగిరికల్యే తులయితుం కవీంద్రాః కల్పంతే కథమపి విదించి ప్రభృతయత యదాలోకౌత్సుక్యాత్ అమరగగనాయాంతి మనసా తపోభిః దుష్ప్రాపామపి గిరిశసాయుజ్య పదవీ. నరం వర్షీయాంసం నయన విరతం నర్మ సుజగం తవాపాంగాలోకే పతితం అనుధావంతి శతశః గగద్వేణీ బంధాః కుచకలశ విత్రస్తతిశయా హఠాదృఢ్యస్తాంచః విగణిత దుకూలాయువతయః. క్షితౌ షట్ పంచాశద్ది సమధిత పంచాశదుదకే హుతాశేర్వాషష్ఠిః చతురధిక పంచాశదనిలే. దివిద్విషట్త్రింశత్ మనసి చతుష్షష్ఠిరితి యే మయూఖాః తేషామప్యుపరి తవ పారాంబుజయుగం. స सरज्जोत्नाशुद्धाम् शतिनुतजटाजूटमकुटा वरत्रासत्राण स्फटितघटिका पुस्तकतरा सकृञ्जत्वा नत्वा कदमिव ददा सन्निदधते मधुक्षीरद्राक्षा मधुरि मधुरीणाः फणितयः कवीन्द्राणाम् चेतः कमलवन बालातपरुचिम् भजन्ते ये सन्तः कदिचित् अरुणामेव भवति विधिञ्चि प्रेयस्याः करुणकर शृङ्गारलधरी गभीराभिर्वाग्भिः विदधति सताम् रञ्जनमभि सवित्रीभिर्वाचा शशिमणिशिलाभङ्गरुजिभिः वशिन्याभ्यामित्वाम् सह जननी सञ्चिन्तयति यत् सतकाव्यानाम् भवति मसताम् भङ्गिरुजिभिः वचोभिः वाग्देवी वदन कमलामोदमधुरैः तनुच्छायाभिस्ते तरुणतरणि श्रीतरणिभिः दिवम् सर्वामुर्वीम् अरुणिमणिमग्नाम् स्मरति यः भवन्त्यस्यत्रस्य द्वनहरिणशालीननयनाः सर्वश्यावश्याः कति कति न गीर्वाण गणिकाः मुखम् बिन्दुम् कृत्वा कुचयुगम् अधस्तस्य तदधः हरार्धम् ध्यायेभ्यः हरमधिषिते मन्मथकलाम् तदध्यक्संक्षोभम् नयति वनिता इत्यातिलघु त्रिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगा चिरन्ती मङ्गेभ्यः किरणनिकुरुम्बामृतरसम् त्रिदित्वा माधत्ते किमतरशिलामूर्तिनिवयः सर्पाणाम् दर्पम् शमयति शकुन्ताधिपैव ज्वरपृष्टान् दृष्ट्या सुक्रयति सुधाधारातिरया सटिल्लेखातन्वी तपनशशि वैश्वानरमयी निषण्णाम् षण्णामप्युपरि कमलानाम् तव कला महापद्माटव्याम् हृदि कमलमायेन मनसा मतान्तः पश्यन्तः दधति परमानन्दलहरी भवानि त्वम् दासे मयि वितरदृष्टिम् सकरुणा इति श्रोतुम् वाचम् कथयति भवानि त्वम् इति यः तदैव त्वम् तस्मै दिशति निजतायुज्य पदवी मुकुन्द ब्रह्मेन्द्र कुटमकुट नीराजित पद त्वया कृत्वा वामम् वपुर परितृप्तेन मनसा शरीरार्थम् शम्भोः अपरमपि शङ्के कृतमभूत् यदेतत्त्वद्रूपम् सकलमरुणाभम् त्रिनयनम् कुचाभ्याम् आनम्रम् कुटिलशचिचूडालमकुटम् जगत्सूते धाता हरिरवति रुद्रक्षपयते शिरस्तुर्वल्येतत् त्वमपि वपुरीशस्तिरयति तदा पूर्वः सर्वम् तदिदम् अनुगृह्णाति च शिवः तवाज्ञाम् आलम्ब्य क्षणचलितयोः भ्रूगतिकयोः त्रयाणाम् देवानाम् त्रिगुणजनितानाम् तव शिवे भवे पूजा तव चरणयोर्या विरचिता तथा हि त्वत्पादोद्वहन मणिपीठस्य निकटे सीता हेते शश्वत् मुकुलितकरोत्तम् समकुटाः गिरिञ्चित् पञ्च त्वम् व्रजति हरिराप्नोति विरतिम् विनाशम् कीनाश भजति धनदो यादि निधनम् वितन्द्री वाचेन्द्री विततिरपि संवीलितदृशा महासंहारेऽस्मिन् विहरति सति त्वत्पतिरसौ जपोदल्पशिल्पम् सकलमपि मुद्राविरचना गतिप्रादक्षिण्यक्रमणम् अशनाद्याहुतिविधिः प्रणामः सन्देशः सुखमखिलम् आत्मार्पणदृशा सपर्यापर्यायः तव भवतु यन्मेरिलसितम् सुधामपि आस्वाद्य प्रतिभयजदा मृत्युहरिणिम् विपद्यन्ते विश्वे विधिशतमखाद्याधिनिषदः करालम् यक्ष्मेलम् सफलितवदत्कालचलना न शम्भोः तन्मूलम् तव जननिताशङ्गमहिमा चिरीटम् वैदिञ्चम् परिकरपुरकैटभविदः कटोरे कोटीरे चलति जहिजम् भारिमकुटम् प्रणम् वेश्वेदेषु प्रसभमुपयातस्य भवनम् भवत्याभ्युत्थाने तव परिजनोऽस्तिः विजयते स्वदेवोद्भूताभिः वृणिभिः अणिमाद्याभिः अभितः निषेव्ये नित्ये त्वाम् अहमिति सदा भावयति यः शिवाश्चर्यम् सत्य त्रिनयनसमृद्धिम् त्रिनयतो महासंवत्ताभिः विरचयति नीराजनविधिम् चतुष्षष्ट्यातन्त्रैः सकलमति सन्धाय भुवनम् इतस्तत्तत्सिद्धि प्रसवपरतन्त्रैः पशुपतिः पुनत्वन्निर्बन्धादखिल पुरुषार्थैकघटनास्वतन्त्रम् ते तन्त्रम् क्षितितलम् अवातीतरदिदम् शिवः शक्तिः कामः क्षितिरधर विश्चीतकिरणः मनोहंसः शक्रः तदनु च परामारहरयः अमीभिर्लेखाभिः शिशुभिः अवतारेषु घटिताः भजन्ते वह्नास्ते तव जननि नामावयवता स्मरं योनिं लक्ष्मीं त्रितयमिदमादौ तव मनोः निधायैके नित्ये निरवधि महाभोगरसिकाः भजन्ति त्वां चिन्तामणिगुण निबद्धाक्षवलयाः शिवाग्नौ दुःखन्दः सुरभिहृदगाराहुतिशतैः शरीरम् त्वम् शम्भोः शशिभिरवक्षोरुभयुगम् तवात्मानम् वल्ये भगवति नवात्मानमनघम् अथ शेषशेषीत्ययम् उभयदाधारणतया स्थितस्कम्बन्धो वा समरसपरानन्दपरयोः मनत्वम् व्योमत्वम् मरुदधि मरुत्सारधिरसि त्वमापः त्वम् भूमिः त्वयि परिणतायाम् नहि परम् त्वरेव स्वात्मानम् परिणमयितुम् विश्ववपुषा चिदानन्दाकारम् शिवयुवतिभावेन बिभृशे ज्ञाचक्रस्थम् सपदशशिकोटिद्युतिधरम् परम् शम्भुम् वन्दे परिमिहितपार्श्वम् परचिता यमाराध्यम् भक्त्या रविशशिशुचीनाम् अविषये निरालोके लोके निवसति भालोकभुवने विशुद्धौ ते दुःखपतितविशदम् व्योमजनकम् शिवम् हे देवीमपि शिवसमानव्यवसिताम् ययोः कान्त्यायात्याः शशिकिरणसारूप्यतरणे विभूतान्तर्ध्वान्ता विदतति च कोरीव जगति समुन्मीलत्संवित् कमलमकरन्दैकरसिकम् भरेकम् सद्वन्द्वम् किमपि भकताम् मानसचरम् यदालाभात् अष्टादश गुणित विद्या परिणतिः यदा दत्ते दोषात् गुणमखिलम् अद्य त्वयैव तव स्वाधिष्ठाने हुतवहम् अधिष्ठाय निरतम् समीपे संवर्तम् जननि महतीम् ताम् च समयाम् सहति मदति क्रोधचरिते दयार्द्राया दृष्टिः शिशिरम् उपचारम् रचयति तडित्वन्द्वम् शक्त्या तिमिरपरिपन्थि स्फुरणया पुरन्नानारत्नाभरण परिणध्येन्द्रदनुषम् तव श्यामम् मेघम् तमपि मणिपूरैक शरणम् विषयवशन्तम् हरभिरतप्तम् त्रिभुवनम् तवाधारे मूले सततमयया लाप्यपरया नवात्मानम् मन्ये नवरतमहाताण्डवनटम् उभाभ्याम् एताभ्याम् उदयविधिम् उद्दिश्य दयया सनाथाभ्याम् जज्ञे जनकजननी मज्जगदिदम् गतैर्माणिक्यत्वम् गगनमणिविस्वान्द्रगदितम् किरीडम् ते दैवम् किमगिरि सुते कीर्तयति यः सनीडे यच्छायाच्छुरणशबलम् चन्द्रशकलम् धनुःसौनातीरम् किमिति न निबध्नादिभिषण धुनोतु ध्वान्तम् नः तुलितदलितेन्द्रीवरवनम् घनस्निग्धश्लक्ष्णम् चिकुरनिकुरूपम् तव शिवे यदीयम् सौरभ्यम् सहजम् उपलब्धुम् सुमनसो वसन्त्यस्मिन् मन्ये वलमथनवाटीरिटपिना स नो सुक्षेमम् नः सह वदन सौन्दर्यजगरी परीवासक्रोतः सरणिरिवसीमन्ततरणिः वसन्ती सिन्दूरम् प्रबलकबरी भारतिविह विषाम् वृन्दैः वन्दीकृतमिव नवीनात्मकिरणम् अरालैः स्वाभाव्या हलितलभसश्रीभिः अलकैः परीतम् ते वक्त्रम् परिहसति पङ्केरुहरुचिम् जगत्मेदे यस्मिन् दशरुचि किम् जल्करुचिरे सुगन्धौ माध्यन्ति मरदकरचक्षुः मधुरिहः लाटम् लावण्यद्युतिविमलम् आभादितव यत् द्वितीयम् तन्मन्ये मकुटघटितम् चन्द्रशकलम् विपर्यासन्यासा उभयमपि सम्भूय च मिथः सुधालेपस्यूतिः परिणमति राता किमकरः भुवौ भुग्ने किञ्चित् भुवनभयभङ्गव्यसनिनि त्वदीये नेत्राभ्याम् मधुकररुचिभ्याम् धृतगुणम् धनुम् मन्ये సభ్యేతరకరగృహీతం రతిపతే ప్రకోష్టేరు సగయతి నిగూఢాంతరం. సూతే సవ్యం కవలయనం అస్వాత్మకతయా శ్రియా మాం వామం తే సృజతి రజనీ నాయకతయా తృతీయా తే దృష్టి దరగలిత హేమాంబుజరుచిః సమాగత్తే సంధ్యాం దివగనిషయోః అంతరచరీ విశాలా కళ్యాణీ కుటరుచిః అయోధ్యా కువలయైః కృపాధారాధారా కిమపి మధురా ఆ భోగవతికా అవంతి దృష్టిస్తే బహునగర విస్తార విజయా ధ్రువం సత్సన్నామ వ్యవహరణయోగ్య విజయతే కవీనాం సందర్భత్తవగమకరం వైగరచితం కటాక్ష వ్యాక్షేప భ్రమర కలభౌ కర్ణయుగలం ఆముంచంతౌ దృష్ట్వా సవనవరసాస్వాదతరలౌ అసూయా సంసర్గాత్ అలికటయనం కించితరుణం శివే శృంగారాద్రా సదితరజనే ఉత్సనపరా సరోషా గంగాయాం గిరిశనయనే విస్మయవతీ హరాశిభ్యో భీతా సరతి రుహ సౌభాగ్య జననీ సచీషు మేరా తే మయి జననీ దృష్టి సకరుణా గతే కర్ణాభ్యన్నం గరుత ఇవ పద్మాణి దదతి పురాభేతు చిత్త ప్రజమరత విద్రావణ ఫలే గోత్రాధరపతి కులోత్రం సకలికే తప ఆకర్ణాకృష్ట మరశర విలాసం కలయత విభక్త త్రైవర్ణ్యం వ్యతికరితలీలాంజనతయా విభాతి త్వన్నేత్రత్రిదయమిదం ఈశానదయితే పునః స్రష్టుం దేవాన్ దృహిణ హరి రుద్రాన్ ఉపనతాన్ రజస్సత్వం బిభ్రత్తమ ఇది గుణానాం త్రయమివ పవిత్రీకర్తుం నః పశుపతి పదాధీన హృదయే దయామిత్రైః నేత్రైః అరుణవద శ్యామరుచిభిః నదశ్రోణో గంగా తపనతనయేతి ధ్రువమముం త్రయాణాం తీర్థానాం ఉపజయతి సంభేదమనఘం. నిమేషోన్మేషాభ్యా ప్రళయముదయం యాతి జగతి సవేత్యాహుః సంతో ధరణిధర రాజన్యతనయే త్వదున్మేషాదాతం జగదిదమశేషం ప్రళయతః పరిత్రాదుం శంగే త్వ పరిహృత నిమేషాతవదృశ సవాపర్ణే కర్ణే జపనయన పైశూన్య చ గీతా నిలీయంతే తోయి నియతమని శబరికా ఇయం చ శ్రీభద్రచ్చరపుటక వాటం కువలయం జహాతి ప్రత్యూషే నిశిత విఘటయ్య ప్రవిశతి దృశాద్రాహీయస్య దరదలిత నీలోత్పల రుచా దవీయాంతం దీనం నపయ కృపయా మామపి శివే అనేనాయం గల్యో భవతి నటతే హానిరియత వనే వా హన్యే వా సమతర నిపాతో హిమతరగ పరాలం తే పాలీయుగలం అగరాజన్యతనయేషామాధత్తే కుసుమశరకోదండకుతుకం శిరశ్చీనో యత్ర శ్రవణపథముల్లంఘ్య విలసన్ అపాంగవ్యాసంగో దిశతి శరసంధానధిషణా పురద్గండాభోగ ప్రతిఫలిత తాటంగయుగలం చతుశ్చక్రం మన్యే తవ ముఖమిదం మన్మథరథం వ్యవారుహ్య దృహ్యతి అవనిరథం అక్షేందుచరణం మహావీరో మారః ప్రమథపతయే సజ్జితవతే సరస్వత్యా అమృతలహరీ కౌశలహరీ పిబంత్యాః సర్వాణి శ్రవణతులుకాభ్యాం అవిదలం చమత్కార శ్లాఘా చరితచిరసత్కుండలగణో ణకరైస్తారైః ప్రతివచనమాచష్ట ఇవతే అసౌ నాతా వంశః సుహిదగిరివంశధ్వజపటి త్వదీయో నేదీయః ఫలతు ఫలం అస్మాకముచితం వసత్యంతర్ముక్తాః శిశిరకర నిశ్వాస జలితం సమృద్ధ్యాయస్తాతాం బహిరపి సముక్తా మణిధరః ప్రకృత్యా రక్తాయాగ్రవత్ సుదతి దంతక్షదరుచేః ప్రవక్ష్యే రాదృశ్యం జలయతు ఫలం విద్రుమలతా బింబం సద్బింబ ప్రతిఫలనగాదాత్ అరుణితం తులా మధ్యారోఢుం కథమివ విలజ్జేత కలయా స్మితజ్యోత్స్నాజాలం ప్రభవదనచంద్రస్య పిబతాం చకోరాణాం ఆసీత్ అతిరసతయా చంచుజడిమా అసత్తే శీతాంశోః అమృతలహరీం ఆమ్లరుచయః పిబంతి స్వచ్ఛందం నిశి నిశి భృశం కాంచిదధియా అవిశ్రాంతం పత్యుః గుణగణకథామ్రేణ జపాపుష్పజ్వాలా సహజలని జిహ్వా జయతి ददद्रासीनायाः स्फटिकदृशदच्छच्च विमये सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा रणे जित्वा दैत्यान् अपकृतशिरस्त्रैः कवचिभिः निवृत्तैः चण्डांश त्रिपुरकरनिर्माय विमुखैः विशाखेन्द्रोपेन्द्रैः शशिविशदकर्पूरशकला विलीयन्ते मातः तववदनताम्बूलकमलाः विपञ्चा गायन्ति विविधमवधानम् पशुपतेः त्वयारब्धे वक्तुम् सलितशिरसा साधुवचने तदीयैर्माधुर्यैः अपलपिततन्त्रीकलरवा निजाम्बीणाम् वाणी निचुलयति चोलेन निभृतम् कराग्रेण स्पृष्टम् तुहिन गिरिणा वत्सलतया गिरीशेन उदत्तम् मुहुः अधरपानाकुलतया करग्राह्यम् शम्भोः मुखमुकुरवृन्दम् गिरिसुते सखम् तारम् ब्रूमः तव तु भुवम् औपम्यरहितम् भुजाशेषानित्यम् पुरदमयितुः कण्ठकवती तव ग्रीवादत्ते मुखकमलनालश्रियम् इयम् स्वतश्वेता काला गुरुबहुलजम्बालमलिना मृणालीलालित्यम् वसति यदधो कारजसिका गले रेखातिस्रो गतिगमकगीतैकनिपुणे विवाहव्यानद्ध प्रगुणगुणसङ्ख्या प्रतिभुवः विराजन्ते नानाविधमधुरराग आकरभुवाम् सयाणाम् ग्रामाणाम् स्थितिनियमसीमानैव ते मृणालीवृद्धीनाम् तव भुजलतानाम् शतकृणाम् चतुर्भिः सौन्दर्यम् सरसिजभवस्तौतिवदनैः न चेद्यत्रम् द्रश्यम् प्रथममथरात् अङ्गदरिभोः चतुर्णाम् शीर्षाणाम् समम् अभयहस्तार्पणधिया नखानाम् उद्योतैः नवनलिनरागम् विहसताराणाम् ते कान्तिम् कथय कथयामत्कथम् पुमे कयाचिद्वा साम्यम् भजतु कलया हन्तकमलम् यति क्रीडल्लक्ष्मी चरणकललाक्षारसचरणम् समम् देवि कन्दद्विपवदनपीतम् सनयुगम् हरतु सततम् प्रश्नुतमुखम् यदालोक्य आशङ्काकुलितहृदयो कातजनकः सकुम्भौ केरम्भः परिवृशति हस्तेन झटिति अमूके वक्षोजौ ಅಮೃತರ ಮಾಣಿಕ್ಯ ಕುತುಕ ನ ಸಂದೇಹ ಸ್ಪಂದೋ ನಗಪತಿ ಪತಾಕೆ ಮನಸ್ಸಿನ ಪಿಬಂತೌ ತೌ ಯಸ್ಮಾತ್ ಅವಿದಿತ ವಧೂಸಂಗ ಸತಿ ಗೌ ಕುಮಾರಾವದ್ಯಾಪಿ ವಿರದವದನ ಪ್ರಂಶದಲನು ಸ್ವಗತ್ಯಂಬ ಸಂವೇರ ಮಗನುಜ ಕುಂಭ ಪ್ರಕೃತಿಭಿಃ ಸಮಾರಬ್ಧ ಮುಕ್ತಾವಳಿಭಿಃ ಅಮಲಾಂಕಾರಯತಿ ತಾಂ ಕುಟಾ ಭೋಗೋ ಬಿಂಬಾಧರ ರುಚಿಭಿಃ ಪಂಚಶಬಲಿತಾಂ ಪ್ರತಾಪವ್ಯಾಮಿಶ್ರಾಂ ಪುರದಮಯಿತುಃ ಕೀರ್ತಿವಿವಸೇ ತವತ್ಸಂಜ್ಞಂ ಮನ್ಯೇ ಧರಣಿಧರ ಕನ್ಯೇ ಹೃದಯತಃ ಪಯಪ್ಪಾರಾವಾರಕ ಪರಿವಸತಿ ಸಾರಸ್ವತಮಿತಃ ದಯಾವತ್ಯಾ ದತ್ತಂ ದ್ರವಿದ ಶಿಶುಃ ಆಸ್ವಾದ್ಯ ತವಯಕ್ಕವೀನಾಂ ಪ್ರೌಢಾನಾಮದನಿ ಕವನೀಯಕ್ಕವೈತ ಕ್ರೋಧಜ್ವಾಲಾವಲಿಭಿಃ ಅವಲೀಢೇನ ವಪುಷಾ ಗಭೀರೇತೇನಾಭೀಸರತಿ ಕೃತಸಂಗೋ ಮನಸಿ ಸಹ ಸಮುತ್ತಕ್ತೌ ತಸ್ಮಾತ್ ಸಜಲತನಯೇ ಧೂಮಲತಿಕಾ ಜನತ್ತಾಂ ಜಾನೀತೆ ತವ ಜನನಿ ರೋಮಾವಲಿರಿತ್ನಂ ಯದೇತತ್ಕಾಲಿಂದೀ ಸನುತರ ತರಂಗಾಕೃತಿ ಶಿವೇ ಕೃತೇ ಮಧ್ಯೇ ಕಿಂಚಿತ್ ಜನನಿ ತವ ಯದ್ಭಾದಿ ಸುಧಿಯಾ ವಿಮದ್ದಾ ಸಂಯೋನ್ಯಂ ಕುಚಕನಶಯೋಗೋ ಅಂತರಗತಂ ಸನುಭೂತಂ ವ್ಯೋಮ ಕವಿಷದಿವನಾಭ್ಯಂ ಕುಹರಿಣಿ ಶಿರೋಗಂಗಾವತ್ತಃ ತನಮುಕುಲರೋಮಾವಲಿಲತಾ ಕಲಾಬಾಲಂ ಕುಂದಂ ಕುಸುಮಶರತೇಜೋಹುತಭುಜಃ ರತೇಭಿರಾಧಾರಂ ಕಿಮಪಿ ಸವನಾಭಿರ್ಗಿರಿಸುತೇ ವಿಲದ್ವಾರಂ ಸಿದ್ಧೇ ಗಿರಿಶನಯನಾನಾಂ ವಿಜಯತೆ ನಿಸರ್ಗಕ್ಷೀಣಸ್ಯ ಸನತಟಭರೇಣ ಕಮಜುಷೋ ನಮನ್ಮೂರ್ತೇ ನಾರೀತಿಲಜ ಶನಕೈರ್ದೃಶ್ಯತೈವ ಚಿರಂ ತೇ ಮಧ್ಯಸ್ಯ ಸ್ತುತಿತ ಸಚಿರೀತಿರ ಕರುಣಾ ಸಮಾವಸ್ಥಾತೇನೋ ಭವತು ಕುಶಲಂ ಶೈಲತನಯೇ ಕುಶೌ ಸದ್ಯಃ ವಿದ್ಯತ್ಸಟಗಟಿತ ಕೋಪಾದಭಿಗುರೌ ಸಶಂಸೌ ದೋರ್ಮೂಲೇ ಕನಕಕಲಶಾಭೌ ಕಲಯತ ತವತ್ರಾತುಂ ಭಂಗಾತ್ ಅಲಮಿತಿವಲಜ್ಜಂ ತನುಭುವಾ ವಿಧಾನಂಗಂ ದೇವಿ ತ್ರಿವಲಿ ಲವಲಿ ವಲ್ಲಿಭಿರಿವ ಗುರುತ್ವಂ ವಿಸ್ತಾರಂ ಕ್ಷಿತಿಧರ ಪತಿಕಿ ಪಾರ್ವತಿ ನಿಜಾ ನಿತಂಬಾತ್ ಆಚಿದ್ಯ ತ್ವಯಿ ಹರಣ ರೂಪೇಣ ನಿಧದೆ ಅತತ್ತೇ ವಿಸ್ತೀರ್ಣೋ ಗುರುರಯಮಶೇಷಾಂ ವಸುಮತೀ ನಿತಂಬ ಪ್ರಾಧಾರಃ ಸಗಯತಿ ಲಘುತ್ವಂ ನಯತಿ ಚ ಸರೀದ್ರಾಣಾಂ ಶುಂಡಾನ್ ಕನಕ ಕದಲೀ ಕಾಂಡ ಪಠರಿ ಉಭಾಭ್ಯಾಂ ಊರುಭ್ಯಾಂ ಉಭಯಮಭಿನಿರ್ಜಿತ್ಯ ಭವತಿ ಸ सुवृत्ताभ्याम् पत्युः प्रणति कठिनाभ्याम् गिरि सुते विधिखेदानुभ्याम् विबुध करिकुम्भद्वयमसि पराजेतुम् रुद्रम् द्विगुणशरगर्भौ गिरिसुते निषङ्गौ जङ्घेते विषमविशिखो बाढमकृत यदग्रे दृश्यन्ते दशशरफलाः पादयुगलीयथा गच्छद्मानः सुरमकुटशानैकनिशिताः श्रुतीनाम् मूर्धानो दधति तव यौ शेखरतया ममाप्येदौ मानः शिरपि दयया धेहि चरणौ ययोः पाद्यम् पाथः पशुपतिजटाजूटतटिनी ययोः लाक्षालक्ष्मीः अरुणकरिचूडामणिरुचिः नमो वाकम् भ्रूमो नयन रमणीयाय पदयोः तवास्मै द्वन्द्वाय स्फुटरुचिरसालक्षकवरे असूयति अत्यन्तम् यदभिहननाय कृतयते पशूनामीशानः प्रमदवन सङ्केलितरवे मृषा कृत्वा गोत्रस्खलनम् अथ वैलक्ष्यनमितम् ललाटे भर्तारम् शरणकमले ताटयति ते चिरादन्दशल्यम् गगनकृतम् मूलितवता तुलाकोटिक्वाणैः किलिकिलितम् ईशानरिपुणा शिवानीहन्तव्यम् हिमगिरिनिवासैकचतुरम् निशायाम् निद्राणाम् निशिचरमभागे च निषदम् वरम् लक्ष्मी पात्रम् श्रियमतिसृजन्तौ समयिना करोजम् त्वत्पादौ जननी जयदच्चित्रमिह किम् पदम् ते कीर्तीनाम् सपदमपदम् देवि विपदाम् कथम् एतम् सद्भिः कठिनकमटीकर्परतुलाम् कथम् वा बाहुभ्याम् उपयमनकाले पुरभिदा यदा दायन्यस्तम् दृशति दयमानेन मनसा न कैर्नागस्त्रीणाम् करकमलसङ्कोच शशिभिः करुणाम् दिव्यानाम् हसत इव ते चण्डि चरणौ फलानि स्वच्छेभ्यः हिसनयकराग्रेण ददता दरिद्रेभ्यो भद्राम् श्रियम् हरिशमस्नाय ददतौ ददाने दीनेभ्यः श्रियमनिशमाशानुषदृशी अनन्दम् सौन्दर्यप्रकरमतरङ्गम् विकिरति तवास्मिन् मन्दारक्तवदसुभगे यातु चरणे निमज्जन्म जीवः करणचरणः षट्चरणता पदन्यासक्रीडा परिचयम् इवारब्धुमनसः खलन्तस्ते खेलम् भवनकलहंसा न जगति अतस्तेषाम् शिक्षा ಸುಭ್ರದಮಣಿ ಮಂಜೀರರಣಿ ಗಚ್ಚಲಾ ಆಚಕ್ಷಾಣಂ ಚರಣಕಮಲಂ ಚಾರುಚರಿತೆ ಗತಾಕ್ಷೇಣಂ ದ್ರುಹಿರಹರಿ ರುದ್ರೇಶ್ವರ ಭೃತಕ ಶಿವತ್ವಚಕ್ರಾಯಾ ಘಟಿತ ಕಪಟ ಪ್ರಚ್ಛದ ಪಟಕ ತ್ವದೀಯಾನಾಂ ಘಾತಾಂ ಪ್ರತಿಫಲ ನಂದಾ ಅರುಣತಯಾ ಶರೀರೀ ಶೃಂಗಾರೋ ರಸೈವ ದೃಶಾಂ ದೋಗ್ಧಿ ಕುತುಕಂ ಕರಾಲಾಕ್ಲೇಶೇಷು ಪ್ರಕೃತಿ ಸರಳಾ ಮಂದ ಸಸಿತೇ ಶಿರೀಷಾಭಾಚಿತ್ತೇ ದೃಶದು ಕಲಶೋಭಾ ಕುಚತಟೇ ದೃಶಂ ತನ್ವೀ ಮಧ್ಯೆ ಪೃಥುರುರಸಿಜಾರೋಹ ವಿಷಯೇ ಜಗತ್ರಾದುಂ ಶಂಭೋರ್ಜಯತಿ ಕರುಣಾ ತಲಂಕ ಕಸ್ತೂರಿ ರಜನಿ ಕರಬಿಂಬಂ ಜಲಮಯಂ ಕಲಾಭಿಃ ಕರ್ಪೂರೈಃ ಮರಕಟಕರಂಡಂ ನಿಬಿಡಿತಂ ಅತತ್ವದ್ಭೋಗೇನ ಪ್ರತಿದಿನಮಿದಂ ರಿಕ್ತಕುಹರಂ ನಿಧಿರ್ಭೂಯೋ ಭೂಯೋ ನಿಬಿಡಯತಿ ನೂನಂ ತವ ಕೃತೇ ಪುರಾದಾತೇಃ ಅಂತಃಪುರಮಸಿ ತದತ್ವಚ್ಛರಣಯೋಃ ಸಪರ್ಯಾ ಮರ್ಯಾದಾ ತರಲ ಚರಣಾನಾ ಅತುಲಭಾ ತಥಾ ಚೇತೇ ನೀತಾಃ ಶತಮಖ ಮುಖಾ ಸಿದ್ಧಿ ಮತುಲಾ ತವ ದ್ವಾರೋಪಾಂತ ಸ್ಥಿತಿಭಿಃ ಅಣಿಮಾದ್ಯಾಭಿಃ ಸಮರಃ ಕಲತ್ತಂ ವೈಧಾತ್ರಂ ಕತಿ ಕತಿ ಭಜಂತೇನ ಕವಯಃ ಶ್ರಿಯೋ ದೇವ್ಯಾಃ ಕೋ ವಾ ನ ಭವತಿ ಪತಿಕೈರಪಿ ಧನೈಃ ಮಹಾದೇವಂ ಹಿತ್ವಾ ತವ ಸತಿ ಸತೀನಾಮ ಚರಮೇ ಕುಚಾಭ್ಯಾವಾಸಂಗಃ ಕುರವಚತರೋರಪಿ ಅಸುಲಭಃ ಗಿರಾಮಾಹುದೇವೀಂ ದ್ರುಹಿಣ ಗೃಹಿಣೀಂ ಆಗಮವಿದೋ ಹರೇ ಪತ್ನೀಂ ಪದ್ಮಾ ಹರ ಸಹಚರೀ ಅದ್ರಿತನಯಾ ತುರೀಯಾ ಕಾಪಿ ತ್ವಂ ದುರಧಿಗಮಯಿತ್ರೀ ಮಮ ಹಿಮಾ ಮಹಾಮಾಯಾ ವಿಶ್ವಂ ಭ್ರಮಯತಿ ಪರಬ್ರಹ್ಮ ಮಹಿಷೀ ಸದಾ ಕಾಲೇ ಮಾತಃ ಕಥಯ ಕಲಿತ ಆಲಕ್ತಕರಕಂ ವಿಧೇಯಂ ವಿದ್ಯಾರ್ಥೀ ತವ ಚರಣ ನಿರ್ನೇಜನ ಜಲಂ ಪ್ರಕೃತ್ಯಾ ಮೂಗಾನಾಮಪಿ ಚ ಕವಿತಾ ಕಾರಣತಯಾ ಸದಾ ಧತ್ತೇ ವಾಣಿ ಮುಖಕಮಲ ತಾಂಬೂಲರಸತಾ ಸರಸ್ವತ್ಯಾ ಲಕ್ಷ್ಮ್ಯಾ ವಿಧಿ ಹರಿ ಸಪತ್ನೋ ವಿಹರತೆ ಪ್ರದೇಹೇ ಪಾರಿವ್ರತ್ಯಂ ಶಿಥಿಲಯತಿ ರಮ್ಯೇಣ ವಪುಷಾ ಚಿರಂ ಜೀವನ್ನೇವ ಕ್ಷಪಿತ ಪಶುಪಾಶವ್ಯತಿಕರಃ ಪರಾನಂದಾಭಿಖ್ಯಂ ರಸಯತಿ ರಸಂ ತ್ವದ್ಭಜನವಾನ್ ಪ್ರದೀಪಜ್ವಾಲಾಭಿರ್ ದಿವಸಕರನೀರಾಜನವಿಧಿ ಸುಧಾತೂತೆ ಚಂದ್ರೋಫಲ ಜಲಲ ವೈರಭ್ಯರಚನಾ ಸ್ವಕೀಯೈರಂಭಾಭಿಃ तलिल निधि सौहित्य करणम् त्वदीयाभिर्वाभिस्तव जननि वाचाम् स्तुतिरियम्।
Thank you.